द्रापे अन्धसस्पते दरिद्रं नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चनाममत् यातेरुत्रशिवातनो शिवा विश्वाह भेषजी शिवा रुद्रस्य भेषजी तजानो मृडजीवसे इमागुम् रुद्राय तवसे कभर्तिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्चमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छञ्जयोश्च मनुराजजे पिता तदश्चावतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भगम् मान उक्षन्तमुतमान उक्षितम् मानो वधेः पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररेरिषः मानस्तोकेतन जे मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते हारात्ते गोग्र उत पूरुषग्रे क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ग्रोह्यथा च नः शर्म यच्छद्विबर्हाः त्वहि श्रुतम् गर्त सदञ्जुवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्मृणक्त्वपरित्येषस्य दुर्मतिरघायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेढ्वस्तोकायतनयाय मृडया मेढुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसान आचरपि नागम् बिभ्रदागहि विकिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधि